ऋषय उवाच सर्वशास्त्रार्थ तत्त्वज्ञ सर्वलोकोपकारक वयं चातिथयः प्राप्ता अतिथेयोऽसि सुव्रत ज्ञानदानेन संसार सागरात्तारयस्वनः कलौ कलुषचित्ता ये नरः पापरतः सदा केन स्तोत्रेण मुच्यन्ते सर्वपातकबन्धनैः इष्टसिद्धिकरं पुण्यं दुःखदारिद्र्यनाशनं सर्वरोगहरं स्तोत्रं सूतनो वक्तुमर्हसि सूत उवाच शृणुत्वं ऋषयः सर्वे नैमिषारण्यवासिनः तत्त्वज्ञास्तपसो निष्ठाः सर्वशास्त्रविशारदाः स्वयं भुवा पुरा प्रोक्तं नारदाय महात्मने तदहं संप्रवक्ष्यामि श्रोतुं कौतूहलं यदि ऋषय उवाच किमाह भगवान् ब्रह्मा नारदाय महात्मने सूतपुत्र महाभाग वक्तुमर्हसि साम्प्रतम् सूत उवाच दिव्यसिंहासनासीनं सर्वदेवैरभिष्टुतं साष्टांगं प्रणिपत्यैनं ब्रह्माणं भुवनेश्वरं नारदः परिपप्रच्छ कृताञ्जलिरुपस्थितः नारद उवाच लोकनाथ सुरश्रेष्ठ सर्वज्ञ करुणाकर षण्मुखस्य वरं स्तोत्रं पावनं पापनाशनं हे दातः पुत्र वात्सल्यात् तद्वदप्रणताय मे उपदिष्ट्वा तु मामेवं रक्ष रक्ष कृपानिधे ब्रह्मोवाच शृणु वक्ष्यामि देवर्षेस्तव राजमिदं परं मातृकामालिका युक्तं ज्ञानमोक्षसुखप्रदं सहस्राणि च नामानि षण्मुखस्य महात्मनः यानि नामानि दिव्यानि दुःखरोगहराणि च जपमात्रेण सिध्यन्ति मनसा चिन्तितान्यपि इहामुत्र परं भोगं लभतेनात्र संशयः इदं स्तोत्रं परं पुण्यं कोटियज्ञफलप्रदं सन्देहो नात्र कर्तव्यः शृणु मे निश्चितं वचः ध्यानम् ध्यायेत् षण्मुखमिन्दुकोटिसदृशं रत्नप्रभाशोभितं बालार्कद्युतिषट्किरीटविलसत्केयूरहारान्वितं कर्णालम्बितकुण्डलप्रविलसत्कण्डस्थलाशोभितं किञ्चित् कङ्कणकिङ्किणीरवयुतं शृङ्गारसारोदयम् ध्याये दीप्सितसिद्धिदं शिवसुतं श्रीद्वादशाक्षरगुहं खेटं कुक्कुटमङ्कुशं च वरदं पाशं धनुश्चक्रकं वज्रं शक्तिमसिं च शूलमभयं दोर्भिर्धृतं षण्मुखं ध्याये चित्रमयूरवाहनशुभं चित्राम्बरालङ्कृतम् ॐ अचिन्त्यशक्तिरनघस्त्वक्षोभ्यो ह्यपराजितः अनाथवत्सलो मोघस्त्वशोकोऽप्यजरो भयः अत्युदारो ह्यगहरस्त्वग्रगण्यो द्विजासुतः अनन्तमाहिमापारो नन्तसौख्यप्रदोऽव्ययः अनुत्तमोक्षयो नादिरप्रमेयोऽक्षरोच्युतः अकल्मषोभिरामोऽग्रधुर्यश्चामितविक्रमः अतुलस्त्वमृतो घोरस्त्वनन्तोऽनन्तविक्रमः अनाथनाथो ह्यमलो ह्यप्रमत्तोऽमरप्रभुः अरिन्दमोऽखिलाधारास्त्वणिमादिगुणाग्रणी अचञ्चलोऽमरस्तुत्यो ह्यकळङ्कोमिताशनः अग्निभूरनवद्याङ्गो ह्यद्भुतोऽभीष्टदायकः अतीन्द्रियो ह्यमेयात्मा ह्यदृश्यो व्यक्तलक्षणः आपद्विनाशकस्त्वार्यस्त्वाढ्यस्त्वागमसंस्तुतः आर्थसंरक्षणस्त्वाद्यस्त्वानन्दस्त्वार्यसेवितः आश्रितेष्टार्थवरदो ह्यनन्तार्थफलप्रदः ఆశ్చర్య రూపస్త్వానంద ఆపన్నార్తి వినాశనః ఇభవత్రానుజస్త్విష్టస్త్విభాసురహరాత్మజః ఇతిహాస శ్రుతి స్తుత్య ఇంద్ర భోగ ఫలప్రదః ఇష్టాపూర్తి ఫలప్రాప్తిరిష్టేష్ట వరదాయకః ఇహాముత్రేష్ట ఫలదస్త్విష్టదస్త్వింద్ర వందితః ఈడనీయ స్త్వీష పుత్ర ఈప్సితార్థ ప్రదాయకః ఈతి భీతి హరశ్చేడ్య ఈషణత్రయ వర్జితః ఉదార కీర్తి రుద్యోగీ చోత్కృష్టోరు పరాక్రమః ఉత్కృష్ట శక్తి రుత్సాహీ హ్యుదారశ్చోత్సవ ప్రియః ఉజృంభ ఉద్భవశ్చోగ్ర ఉదగ్రశ్చోగ్రలోచనః ఉన్మత్తశ్చోష్ణశమనః ఉద్వేగ ఘోరగేశ్వరః ఉరుప్రభావశ్చోదీర్ణశ్చోమాసూనురుదారధీః ఊర్ధ్వరేతస్తుతస్తూర్ధ్వగతిదస్తూర్విపాలకః ఊర్జితస్తూర్ధ్వగస్తూర్ధ్వ ఊర్ధ్వలోకైకనాయకః ఊర్జవానూర్జితోదారస్తూర్జితోర్జితశాసనః ఋషిదేవగణస్తుత్య ఋణత్రయ విమోచనః ఋజురూపో ఋజుకరో ఋజుమార్గప్రదర్శనః ఋతంభరో ఋజుప్రీతో ఋషభస్తృద్ధితో శుచః లృళోతోద్ధారకోల్ధృతభవపాశప్రభంజనః ఏణాంకధర సత్పుత్రస్త్వేక ఏనః ప్రణాశనః ఐశ్వర్యదశ్చైంద్రభోగీ జైదీహశ్చైంద్రవద్యుతిః ఓజస్వీ చౌషధీస్థానశ్చోజోదశ్చోదనప్రియః ఔదార్యశీలస్తౌపమేయ ఔగ్రస్త్వౌన్నత్యదాయకః ఔదార్యస్త్వౌషధాకారస్త్వౌషధిస్త్వౌషధారకః అంశుమాల్యంశుమాలాఢ్య అంబికాతనయోన్నదః అంధకారిసుతోంధత్వహారీహ్యంబుజలోచనః అస్తమాయోమరాధీశో హ్యస్పష్టోస్తోకపుణ్యదః అస్తామిత్రోస్తరూపశ్చ స్ఖలత్సుగతిదాయకః కార్తికేయః కామరూపః కుమారః క్రౌంచధారణః కామదః కారణః కామ్యః కమనీయః కృపాకరః కాంచనాభః కాంతియుక్తః కామీ కామప్రదః కవిః కీర్తికృత్కుక్కుటధరః కూటస్థః కువలేక్షణః కుంకుమాంగః క్లమహరః కుశలః కుక్కుటధ్వజః కృషానుసంభవః క్రూరః క్రూరగ్నః కలితాపహృత్ కామరూపః కల్పతరుః కాంతః కల్పితదాయకః కళ్యాణకృత్క్లేశనాశః కృపాలుః కరుణాకరః కలుషగ్నః క్రియాశక్తిః కఠోరః కవచీకృతిః కోమలాంగః కుహూప్రీతః కుత్సితజ్ఞః కళాధరః ఖ్యాతః ఖేటధరః ఖడ్గీ ఖడ్వాంగీ ఖలనిగ్రహః ఖ్యాతిప్రదః ఖేచరేశః ఖ్యాతేః ఖేచరస్తుతః ఖరతాపహరః ఖస్తః ఖేచరః ఖేచరాశ్రయః ఖండేందుమౌళితనయః ఖేలాఖేచరపాలకః ఖస్తః ప్రియః ఖండితాగః ఖేచరీజనపూజితః గాంగేయోగిరిజాపుత్రో గణనాథానుజో గుహః గోప్తా గీర్వాణ సంసేవ్యో గుణాతీతో గుహాశ్రయః గతిప్రదో గుణనిధిర్గభీరో గిరిజాత్మజః గూఢరూపో గదహరః గుణాధీశో గుణాగ్రణీః గోధరో గహనో గుప్తో గర్వఘ్నో గుణవర్ధనః గుహ్యో గుణజ్ఞో గీతజ్ఞో గతాతంకో గుణాశ్రయః గద్యపద్యప్రియో గుణ్యో గోస్తుతో గగనేచరః గణనీయచరిత్రశ్చ గతక్లేశో గుణార్ణవః ఘూర్ణితాక్షో ఘృణనిధిర్ఘనగంభీరఘోషణః ఘంటానాదప్రియో ఘోరాఘౌఘనాశో ఘనప్రియః घनानन्दो घर्महन्ता घृणिमान् गृष्टिपातकः घृणी घृणाकरो घोषो घोरदैत्यापहारकः घटितैश्वर्यसन्दोहो घनार्ती घनविक्रमः चित्रकृच्चित्रवर्णश्च चञ्चलश्चामरद्युतिः चिन्मयश्चित्स्वरूपश्च चिदानन्दश्चिरन्तनः चित्रचेलश्चित्रतरश्चिन्तनीय च मत्कृतिः चोरग्नश्चतुरश्चारु चामीकरविभूषणः चन्द्रार्ककोटिसदृशश्चन्द्रमौळितनूभवः छादिताङ्गश्चद्महन्ता छेदिताखिलपातकः छटीकृतमहाक्लेशः छत्रीकृतमहायशाः छेदिताशेषसन्तापश्चरितामृतसागरः छन्नत्रैगुण्यरूपश्च छिन्नैनाश्चिन्नसंशयः छन्दोमयश्चन्दगामी छिन्नपाशश्च विच्छदः जगद्धितो जगत्पूज्यो जगज्येष्ठो जगन्मयः जनको जाह्नवी सूनुर्जिता मित्रो जगद्गुरुः जयी जितेन्द्रियो जेत्रा जरा मरणवर्जितः ज्योतिर्मयो जगन्नाथो जगज्जीवो जनाश्रयः जगत्सेव्यो जगत्कर्ता जगत्साक्षी जगत्प्रियः जम्भारिवन्द्यो जयदो जगज्जनमनोहरः जगदानन्दजनको जनजाड्यापहारकः जपाकुसुमसङ्काशो जनलोचनशोभनः जनेश्वरो जगद्व्याप्तो जनजन्मनिबर्हणः जयदो जन्तुतापघ्नो जितदैत्यमहाव्रजः जितामायो जितक्रोधो जितदम्भो जनप्रियः जञ्झानिलमहावेगो जटिताशेषपातकः जर्झरीकृतदैत्यौघो जल्लरीवाद्यसुप्रियः ज्ञानमूर्तिर्ज्ञानगम्यो ज्ञानी ज्ञानमहानिधिः टङ्कारनृत्यविभवष्टङ्कवज्रध्वजाङ्कितः टङ्किताखिलोकश्च टङ्कितैनस्तमो रविः डम्बरप्रभवोडम्बो डम्बाडमरुकप्रियः डमरोत्कटसन्नाधो डमरोत्कटजाण्डजः डक्कानादप्रियकरो ढलितारवसङ्कुलः डाकितामरसन्दोहो ढुण्डिविघ्नेश्वरानुजः तत्त्वज्ञस्तत्त्वगस्तीव्रस्तपोरूपस्तपोमयः त्रयीमयस्त्रिकालज्ञस्त्रिमूर्तिस्त्रिगुणात्मकः त्रिदशेषस्तारकारिस्तापज्ञस्तापसप्रियः तुष्टिरस्तुष्टिकृत्तीक्ष्णस्तपोरूपस्त्रिकालवित् स्तोतास्तव्यस्तवप्रीतस्तुतिस्तोतस्तुतप्रियः स्थितस्थायीस्तापकश्च स्थूलसूक्ष्मप्रदर्शकः स्थविष्टस्थविरस्थूलस्थानदस्थैर्यदस्थिरः दान्तोदयापरो दाता दुरितघ्नो दुरासदः दर्शनीयो दयासारो देवदेवो दयानिधिः दुरादर्शो दुर्विगाह्यो दक्षो दर्पणशोभितः दुर्धरो दानशीलश्च द्वादशक्षो द्विषड्भुजः द्विषट्कर्णो द्विषड्बाहुर्दीनसन्तापनाशनः दन्तशूकेश्वरो देवो दिव्यो दिव्याकृतिर्दमः दीर्घवृत्तो दीर्घबाहुर्दीर्घदृष्टिर्दिवस्पतिः दण्डो दमयिता दर्पो देवसिंहो दृढव्रतः दुर्लभो दुर्गमो दीप्तो दुष्प्रेक्षो दिव्यमण्डनः दुरोदरघ्नो दुःखघ्नो दुरारिघ्नो दिशाम्पतिः दुर्जयो देवसेनेशो दुर्ज्ञेयो दुरतिक्रमः दम्भो दृप्तो देवऋषिर्दैवज्ञो दैवचिन्तकः दुरंधरो धर्मपरो धनदो धृतिवर्धनः धर्मेशो धर्मशास्त्रज्ञो धन्वी धर्मपरायणः धनाध्यक्षो धनपतिर्धृतिमान् धृतकिल्बिषः धर्महेतुर्धर्मशूरो धर्मकृद्धर्मविद्रुमः धाता धीमान् धर्मचारी धन्यो धुर्यो धृतव्रतः नित्योत्सवो नित्यतृप्तो निर्लेपो निश्चलात्मकः निरवध्यो निराधारो निष्कलङ्को निरञ्जनः निर्ममो निरहङ्कारो निर्मोहो निरुपद्रवः नित्यानन्दो निरातङ्को निष्प्रपञ्चो निरामयः निरवध्यो निरीहश्च निर्द्वन्द्वो निर्मलात्मकः नित्यानन्दो निर्जरेशो निःसङ्गो निगमस्तुतः निष्कलङ्को निरालम्भो निष्प्रत्यूहो निजोद्भवः नित्यो नित्यैककल्याणो निर्विकल्पो निराश्रयः नेता निधिर्नैकरूपो निराकारो नदीसुतः पुलिन्दकन्या रमणो पुरजित् परमप्रियः प्रत्यक्षमूर्तिर्प्रत्यक्षः परेशः पूर्णपुण्यदः पुण्यकरो पुण्यरूपो पुण्यः पुण्यपरायणः पुण्योदयः परञ्ज्योतिः पुण्यकृत्पुण्यवर्धनः परानन्दः परात्परः पुण्यकीर्तिः पुरातनः प्रसन्नरूपः पाण्ड्येशः पन्नगः पापनाशनः प्रणतार्तिहरः पूर्णः पार्वतीनन्दनः प्रभुः पूतात्मा पुरुषः प्राणः प्रभवः पुरुषोत्तमः प्रसन्नः परमस्पष्टः परः परिवृढः परः परमात्मा परब्रह्म परार्थप्रियदर्शनः पवित्रः पुष्टिदः पूर्तिः पिङ्गलः पुष्टिवर्धनः पापहारी पाशधरः प्रमत्तासुरशिक्षकः पावनः पावकः पूज्यः पूर्णानन्दः परात्परः पुष्कलः प्रवरः पूर्वः पितृभक्तः पुरोगमः परब्रह्मस्वरूपश्च परमैश्वर्यकारणः प्राणदः प्राणजनकः प्रतिष्ठः पावकोद्भवः परार्थदः पुष्टिकरः प्रकाशात्मा प्रतापवान् प्रज्ञापरः प्रतिष्ठार्थो पृथुः पृथुपराक्रमः फणीश्वरः फणिवरः फणामणिविभूषणः फलदः फलहस्तश्च पुल्लाम्बुविलोचनः पट्पट्पाटितपापौघः फणिराजविभूषणः बाहुलेयो ब्रह्मरूपो बलिष्ठो बलवान् बली ब्रह्मेश विष्णुरूपश्च बुद्धो बुद्धिमताम्बरः बालरूपो बृहद्गर्भो ब्रह्मचारी बुधप्रियः बहुश्रतो बहुमतिः ब्रह्मण्यो ब्राह्मणप्रियः बलप्रमथनो ब्रह्म बहुरूपो बहुप्रदः बृहद्भानुतनूभूतो बृहत्सेनोऽभिलेषयः बहुबाहुबलश्रीमान् बहुदैत्यविनाशकः बिलद्वारान्तराळस्थो बृहच्छक्तिर्धनुर्धरः बालार्कद्युतिमान् बालो बृहद्वक्षा बृहत्तमः भव्यो भोगीश्वरो भाव्यो भावनाशो भवप्रियः भक्तिगम्यो भयहरो भागज्ञो भक्तसुप्रियः भुक्तिमुक्तिप्रदो भोगी भगवान् भाग्यवर्धनः भ्राजिष्णुर्भावनो भर्ता भीमो भीमपराक्रमः भूतिदो भूतिकृद्भोक्ता भूतात्मा भुवनेश्वरः भावको भद्रकृद्भूष्टुर्भावकेष्णो भवोद्भवः भवतापप्रशमनो भोगवान् भूतभावनः भोज्यप्रदो भ्रान्तिनाशो भानुमान् भुवनाश्रयः भूरि भोग प्रदो भद्रो भजनीयो भिषक्पतिः महासेनो महोदारो महाशक्तिर्महाद्युतिः महाबुद्धिर्महावीर्यो महोत्साहो महाबलः महाभोगी महामायी मेधावी मेखली महान् मुनिस्तुत्यो महामान्यो महानन्दो महायशाः महोर्जितो माननिधिर्मनोरथफलप्रदः महोदयो महापुण्यो महाबलपराक्रमः मानदो मतिदो मानी मुक्ता माला विभूषणः मनोहरो महामुख्यो महर्दिमूर्तिमान्मुनिः महोत्तमो महोपायो मोक्षदो मङ्गलप्रदः मुदाकरो मुक्तिदाता महाभोगो महोरगः यशस्करो योगयोनिर्योगिष्ठो यमिनाम्बरः यशस्वी योगपुरुषो योग्यो योगनिधिर्यमी यतिसेव्यो योगयुक्तो योगविद्योगसिद्धिदः यन्त्रो यन्त्री च यन्त्रज्ञो यन्त्रवान्यन्त्रवाहकः यातनारहितो योगी योगीशो योगिनाम्बरः रमणीयो रम्यरूपो रसज्ञो रसभावकः रञ्जनो रञ्जितो राज्ञो रुचिरो रुद्रसम्भवः रणप्रियो रणोदारो रागद्वेषविनाशनः रत्नार्चिरुचिरो रम्यो रूपलावण्यविग्रहः रत्नाङ्गदधरो रत्नभूषणो रमणीयकः रुचिकृद्रोच मानश्च रञ्जितो रोगनाशनः राजीवाक्षो राजराजो रत्नमाल्यानुलेपनः ऋग्यजुस्साम संस्तुत्यो रजः सत्त्वगुणान्वितः रजनीशकलारम्यो रत्नकुण्डलमण्डितः रत्नसन्मौलिशो भाट्यो रजन्मञ्जीरभूषणः लोकैकनाथो लोकेशो ललितो लोकनायकः लोकरक्षो लोकशिक्षो लोकलोचनरञ्जितः लोकबन्धुर्लोकदाता लोकत्रयमहाहितः लोकचूडामणिर्लोकवन्द्यो लावण्यविग्रहः लोकाध्यक्षस्तु लोकपते लोकोत्तरगुणान्वितः वरिष्ठो वरदो वैद्यो विशिष्टो विक्रमो विभुः विबुदाग्रचरो वश्यो विकल्पपरिवर्जितः विपाशो विगतातङ्को विचित्राङ्गो विरोचनः विद्याधरो विशुद्धात्मा वेदाङ्गो विबुधप्रियः वचस्करो व्यापकश्च विज्ञानी विनयान्वितः विद्वत्तमो विरोधिघ्नो वीरो विगतरागवान् वीतभावो विनीतात्मा वेदगर्भो वसुप्रदः विश्वदीप्तिर्विशालाक्षो विजितात्मा विभावनः वेदवेद्यो विधेयात्मा वीतदोषश्च वेदवित् विश्वकर्माजितभयो वागीशो वासवार्चितः वीरध्वंसो विश्वमूर्तिर्विश्वरूपो वराननः विशाखो विमलो वाग्मी विद्वान् वेदधरो वटुः वीरचूडामणिर्वीरो विद्येशो विबुधाश्रयः विजयी विनयी वेत्ता वरियान् वीरजो वसुः वीरघ्नो विज्वरो वेद्यो वेगवान् वीर्यवान् वशी वरशिलो वरगुणो विशोको वज्रधारकः शरजन्मा शक्तिधरः शत्रुघ्नः शिकिवाहनः श्रीमान् शिष्टः शुचिः शुद्धः शाश्वतः श्रुतिसागरः शरण्यः शुभदः श्रीमान् शिष्टेष्टः शुभलक्षणः शान्तः शूलधरः श्रेष्ठः शुद्धात्मा शङ्करः शिवः क्षितिकण्ठात्मजः शूरः शान्तिदः शोकनाशनः षण्मातुरः षण्मुखश्च षड्गुणैश्वर्यसंयुतः षट्चक्रस्थषडूर्मिघ्नषडङ्गश्रुतिपारगः षड्भावरहितः षट्कशट्शास्त्रश्रुतिपारगः षड्वर्गदाता षड्ग्रीवः षडरिघ्नः षडाश्रयः षट्किरीटधर श्रीमान् षडाधारश्वषट्क्रमः षट्कोणमध्यनिलयः षण्डत्वपरिहारकः सेनानि सुभगस्कन्दः सुरानन्दः सतां गतिः सुब्रह्मण्यः सुराध्यक्षः सर्वज्ञः सर्वदा सुखी सुलभः सिद्धिदः सौम्यः सिद्धेशः सिद्धिसाधनः सिद्धार्थः सिद्धसङ्कल्पः सिद्धः साधुः सुरेश्वरः सुभजः सर्वदृक्साक्षी सुप्रसादः सनातनः सुधापतिः स्वयं ज्योतिः स्वयं भूः सर्वतोमुखः समर्थः सत्कृतिः सूक्ष्मः सुघोषः सुखदः सुकृत् सुप्रसन्नः सुरः श्रेष्ठः सुशीलः सत्त्वसाधकः सम्भाव्यः सुमनः सेव्यः सकलागमपारगः सुव्यक्तः सच्चिदानन्दः सुवीरः सुजनाश्रयः सर्वलक्षणसम्पन्नः सत्यधर्मपरायणः सर्वदेवमयः सत्यः सर्वमृष्टान्नदायकः सुयमीसुमनः सत्यः सर्वविघ्नविनाशनः सर्वदुःखप्रशमनः सुकुमारः सुलोचनः सुग्रीवः सुशिरस्यारः सुराराध्यः सुविक्रमः सुरारिघ्नस्वर्णवर्णः सर्पराजः सदाशुचिः सप्तार्चिर्भूसुरवरः सर्वायुधविशारदः हस्तिचर्माम्बरसुतो हस्तिवाहनसेवितः हस्तचित्तायुधधरो हृताघोहसिताननः हेमभूषो हरिद्वर्णो हृष्टदो हृष्टिवर्धनः हेमाद्रिभिद्हंसरूपो हुङ्कारो हतकिल्बिषः हेमाद्रिजाता तनुजो हरिकेशो हिरण्मयः हृद्यो हृष्टो हरिसखो हंसो हंसगतिर्हविः हिरण्यवर्णो हितकृत् हर्षदो हेमभूषणः हरप्रियो हितकरो हतपापो हरोद्भवः क्षेमदक्षेमकृत् क्षेम्यः क्षेत्रज्ञः क्षामवर्जितः क्षेत्रपालः क्षमाधार क्षेमक्षेत्रक्षमाकरः क्षुद्रज्ञः क्षान्तिदक्षेमक्षितभूषक्षमाश्रयः क्षालितागः क्षितिधर क्षीणसंरक्षणक्षमः क्षणभङ्गुरसन्नद्धघनशोभितदर्पकः क्षितीन्द्रनाथतनयामुखपङ्कजभास्करः इति नाम्नां सहस्राणि षण्मुखस्य च नारदः यः पठेत् शृणुयाद्वापि भक्तियुक्तेन चेतसा स सद्यो मुच्यते पापैर्मनोवाक्काय सम्भवैः आयुर्वृद्धिकरं पुंसां स्थैर्यवीर्यविवर्धनम् वाक्येनैकेन वक्ष्यामि वाञ्छितार्थं प्रयच्छति तस्मात् सर्वात्मना ब्रह्मन् नियमेन जपेत् सुधीः इति स्कान्दपुराणे ईश्वरप्रोक्ते अगस्त्यनारदसंवादे सुब्रह्मण्यसहस्रनामस्तोत्रं सम्पूर्णम्।